पृष्ठ संख्या 8। यौगंधरायण हंत सविज्ञानमस्य दर्शनम वत्से उपसर्पावस्तावदेनम वासवदत्ता अय्यतः आर्य तथा यौगंधरायण उपसृत्य भोः किंग कृतेयम् उत्सारणा कंचुकीयः भोस्तपस्विन यौगंधरायणः आत्मगतम् तपस्विन्निति गुणवान खल्वयमालापः अपरिचयात्तु न श्लिष्यते मे मनसि कांचुकीयः भोः श्रूयताम् एषा खलु गुरुभिः अभिहित नामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावतीनां सैषा नो महाराजमातरं महादेवीम् आश्रमस्थामभिगम्यत् अनुज्ञाता तत्र भवत्या राजगृहमेव यास्यति तत् अद्यास्मिन् आश्रमपदे वासो अभिप्रेतो अस्याः तद्भवन्तः तीर्थोदकानि समिधः कुसुमानि दर्भान स्वैरं वनादुपनयन्तु तपोधनानि धर्मप्रिया नृपसुता न हि धर्मपीडामिच्छेत तपस्विषु कुलव्रतमेतदस्याः हन्तः हर्षविषय इत्यर्थः हन्त हर्षे अनुकम्पायां वाक्यारम्भविषादयोः इत्यमरः सविज्ञानं विशिष्टज्ञानसहितं धर्मनित्यनुकूलमिति भावः वत्से वात्सल्यभाजनभूते भगिनीति भावः उपसर्पावः समीपे गच्छावः एनं काञ्चुकीयं किं कृता केन निमित्तेन कृता न श्लिष्यते न सङ्गच्छते अपरिचयात् अप्रत्याभिज्ञानात् महाराजमातरं दर्शकस्य जननीम् अनुज्ञाता आदिष्टा वासः अवस्थानम् अभिप्रेतः अभीष्टः टिप्पणी परिधन हरिण्यधन लोटधन तिप परिहरतु नृपस्यापवादं षष्ठी तत्पुरुष नृपापवादं प्रयोक्तुं शक्यं प्रयोज्यं प्रधन अयुजधन ण्यत प्रयोज्यं प्रशस्तं मनो येषां ते इति मनस शब्दात् अस्मायाधेतास्त्रजो विनिः इत्यनेन विनिः मनश्विनः विज्ञातेन सहितम् इत्यत्र तेन सहेति तुल्योगे त्यनेन तुल्ययोगे बहुव्रीहि समासः वोपसर्जनस्ये त्येनेन सहेत्यस्य स्थाने वैकल्पिकः स इत्यादेशः सविज्ञानम् उपधन श्रीप्लि धनगतौ धनलटधनबस उपसर्पावः अन्वये तीर्थोदकानि समिधः कुसुमानि दर्भान तपोधनानि वनात् स्वैरम् उपनयन्तु हि धर्मप्रिया नृपसुता तपस्विपुः धर्मपीडां न इच्छेत् एतद् अस्याः कुलव्रतम् व्याकरण तीर्थोदकानि तीर्थस्य पवित्रस्य नद्यार्देजलानि समिधः काष्ठखण्डानि काष्ठं दार्विन्धनं त्वेध इद्मेधः समितस्त्रियाम् इत्यमरः कुसुमानि पुष्पाणि दर्भान् कुशान् तपोधनानि इमानि तपःसाधनभूतानि वनात् अरण्यात् स्वैरं यथेच्छम् उपनयन्तु आनयन्तु भवन्त इति शेषः हि यतः धर्मप्रिया धर्मानुरागवती नृपसुता राजकुमारी पद्मावतीति भावः तपस्वीषु तपोधनेषु धर्मपीडां धर्माचरण व्यवधानम न इच्छेत न अभिलषेत एतत् धर्माचरणम् अस्याः नृपसुतायाः कुलव्रतं वंशाचरणम् अस्तीति शेषः वसन्ततिलकं वृत्तम्। टिप्पणी: तीर्थस्योदकानि षष्ठी तत्पुरुष तीर्थोदकानि इरणम् इरः इर्गतौ धातोर्भावे घ्यञ् स्वेन इरः तद्यथा तथा क्रियाविशेषणं स्वैरम्। अत्र कर्तृकरणे कृता बहुलम् इति तृतीया तत्पुरुषसमासः स्वादिरेरिणोः इति वृद्धिः उपधन निधन लोटधन झि उपनयन्तु। धर्मः प्रियो यस्याः सा बहुव्रीहिः समास धर्मप्रिया तपस्धन विनिधन सुप तपस्वीषु। यौगंधरायण: अहा, देखने में यह बुद्धिमान प्रतीत होता है, बेटी हम लोग इसके पास चलें। वासवदत्ता: आर्य, अच्छा। यौगंधरायण पास जाकर: महाशय, लोगों को किस लिए हटाया जा रहा है? कंचुकीय: हे तपस्वी। यौगंधरायण: स्वगत, तपस्वी शब्द से संबोधन करना निश्चय ही गुणयुक्त वार्तालाप है, किंतु जान पहचान न होने से मेरे मन में यह संगत नहीं हो रहा है। कंचुकीय: श्रीमान सुनिए, यह हमारे महाराज दर्शक की, जिनकी दर्शक नाम गुरुजनों ने यथार्थ ही रखा है, बहन पद्मावती हमारे महाराज की आश्रमवासिनी माता महादेवी से मिलकर पुनः उन पूजनिया की आज्ञा पाकर राजगृह को लौट जाएंगी। इस प्रकार आज इनकी इसी आश्रम में रहने की इच्छा है, अतः आप लोग लकड़ी फूल और कुश आदि तपस्या की सामग्री को वन से स्वेच्छापूर्वक ले आवें। राजकुमारी धर्म में रुचि रखने वाली हैं, अतः यह तपस्वियों के धर्म कार्य में व्यवधान डालना कदापि नहीं चाहेंगी, यह इनका वंश धर्म है।